ॐ अथ लघुज्ञासः ॐ अथात्मानं शिवात्मानं श्रीरुद्ररूपं ध्यायेत् शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकं गङ्गाधरं दशभुजं सर्वाभरणभूषितं नीलग्रीवं शशाङ्काङ्कम् नागयज्ञोपवीतिनां व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदां कमण्डलवक्षशूद्राणां घारिणं शूलपाणिनां ज्वलन्तं पिङ्गलजठा शिखामुद्योदधारिणं वृषस्कन्धसमारूढम् उमादेहार्धधारिणम् अमृतेनाप्लुतं शान्तम् दिव्यभोगसमन्वितं दिग्देवतासमायुक्तं सुरासुरनमस्कृतं नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययं सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् एवं ध्यात्वा द्विजः सम्यक् ततो ह्यजनमारभेत् ॐ प्रजनने ब्रह्मा तिष्ठतु पादयोर्विष्णुस्तिष्ठतु हस्तयोर्हरस्तिष्ठतु बाह्योरिन्द्रस्तिष्ठतु जठरे अग्निस्तिष्ठतु हृदये शिवस्तिष्ठतु कण्ठे वसवस्तिष्ठन्तु वक्त्रे सरस्वती तिष्ठतु नासिकयोर्वायुस्तिष्ठतु नयनयोश्चन्द्रादित्यौ तिष्ठेताम् कर्णयोरश्विनौ तिष्ठेताम् ललाठे रुद्रास्तिष्ठन्तु मूर्ध्न्यादित्यास्तिष्ठन्तु शिरसि महादेवस्तिष्ठतु शिखायां वामदेवस्तिष्ठतु पृष्ठे पिनाकी तिष्ठतु पुरतः शूली तिष्ठतु पार्श्वयो शिवाशङ्करौ तिष्ठेताम् सर्वतो वायुस्तिष्ठतु ततो बहिः सर्वतोऽग्निर्ज्वालामाला परिवृतस्तिष्ठतु सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु मां रक्षन्तु सर्वान् महाजनान् रक्षन्तु अग्निर्मे वाजिहृतः वाग्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि वायुर्मे प्राणेष्हृतः प्राणो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि सूर्यो मे चक्षुषिहृतः चक्षुर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि चन्द्रमा मे मनसिहृतः मनो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि दिशो मे श्रोत्रे श्रुताः श्रोत्रगं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि आपो मे रेतसि श्रुताः रेतो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पृथिवी मे शरीरे श्रुता शरीरगं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ओषधिवनस्पतयो मे लोमसुश्रुताः लोमानि हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि इन्द्रो मे बले श्रुतः बलगं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पर्जन्यो मे मूर्ध्निश्रुतः मूर्धा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ईशानो मे मन्यौ श्रुतः मन्युर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि आत्मा महात्मनिश्रुतः आत्मा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पुनर्महात्मा पुनरायुरागाधि punah pranah punarakutamagadhi vaishvanaro rashmivirvavrdhanah antastishthatvamrtasya gopah asya shri rudradhyaya prashna mahamantrasya aghora rishihi anushtup chandah sankarshana murti swarupo yosavadityah paramapurushasya esha rudro devata namah shivayeti bijam shivatarayeti shaktih mahadevayeti kilakam shri sambasada shivaprasada siddhyarthe jape viniyogah Om Agnihodratmane Angushthabhyam Namaha Darshapurnamasatmane Tarjanibhyam Namaha Chaturmasyatmane Madhyamabhyam Namaha Nirudhapajubandhatmane Anamikabhyam Namaha Jyotishthomatmane Kanishthikabhyam Namaha Sarvakratvatmane Karatalakaraprishthabhyam Namaha Agnihodratmane Hridayaya Namaha Darshapurnamasatmane Shirase Swaha Chaturmasyatmane Shikhayai Vashat Nirudhapashubandhatmane Kavachayahum Jyotishthomatmane Netratrayaya Vaushat Sarvakratvatmane Astraya Phat Bhurbhuvasuvaromiti Digbandhaha Dhyanam Apathalana bhastalanda bhuvana brahmanda mavispurate Jyotispatika linga mauli vilasat purnendu vantamrtaihi Astokaprutameka misha manisham rudranu vakhan japan Dhyaye dipchita siddhaye dhuvapadam viprobhishin chechivam Brahmanda vyapta deha bhasita himarujha bhasamana bhujangaihi Khande kala kavarda kalida shashikalas chandako danda hastaha Draksharudrakshamala prakatita vibhava shambhava murti bhedaha Rudrashri rudra sukta pranada bhayaharana prayachandu saukhyam Brahmanda vyapta deha bhasita himarujha bhasamana bhujangaihi Khande kala kabarda kalida shashikalas chandako danda hastaha Draksharudrakshamala prakatita vibhava shambhava murti bhedaha Rudrashri rudra sukta pranada bhayaharana prayachandu saukhyam Om Om Gananandhva Ganavadikam Havamahi Kavinkabhinam Upamashravastamam Cheshtarajam Brahmanam Brahmanaspadanish Hrindvanhuti Bhissidasadhanam Om Shri Mahaganapataye Namaha